श्रुतिस्मृतिपुराणोक्तधर्ममार्गरतं गुरुं भक्तानां हितवक्तारं नमस्ये चित्तशुद्धये अद्वैतानन्दभरितं साधूनामुपकारिणं सर्वशास्त्रविदं शान्तं नमस्ये चित्तशुद्धये कर्मभक्तिज्ञानमार्गप्रचारे बद्धकङ्कणं अनुग्रहप्रदातारं नमस्ये चित्तशुद्धये भगवत्पादपादाब्जविनिवेशितचेतसः श्रीचन्द्रशेखरगुरोः प्रसादो मयि जायतां क्षेत्रतीर्थकथाभिज्ञः सच्चिदानन्दविग्रहः चन्द्रशेखरवर्यो मे सन्निधत्तां सदा हृदि पोषणे वेदशास्त्राणां दत्तचित्तमहर्निशं क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरं वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरं मणिवाचकगोदादिभक्तिवागमृतैर्भृशं बालानां भगवद्भक्तिं वर्धयन्तं गुरुं भजे लघूपदेशैर्नास्तिक्यभावमर्दनकोविदं शिवं स्मितमुखं शान्तं प्रणतोऽस्मि जगद्गुरुं विनयेन प्रार्थयेऽहं विद्यां बोधय मे गुरो मार्गमन्यं न जानेऽहं भवन्तं शरणं गतः।